इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अस्य मासस्य नवमे दिनांके पंजाब राज्ये जलप्लावनस्य स्थितिं समीक्षितुं गमिष्यति। पंजाबे जम्मू कश्मीरे हिमाचल प्रदेशेषु जलप्रलय स्थितिमाधृत्य सहायोद्धार कार्याणि सजवं प्रचलन्ति। भारतीय ऋतु विज्ञान विभागेन अद्य गुजरात राजस्थानयोः अतिवृष्टेः अनुमानं प्रकटितम्। जापान देशस्य प्रधानमन्त्री शिगेरु इशिबा इत्यनेन अद्य निर्वाचने पराजयानन्तरं त्यागपत्रं प्रदत्तम्। भारतेन विश्व व्यापार संघटनेन सह मुक्त निष्पक्ष समावेशी बहुपक्षीय व्यापार व्यवस्थायाः प्रतिबद्धता पुनः पुष्टीकृता। अपि च विश्व धनुर प्रतिस्पर्धायां भारतीय पुरुष युगल वर्गेण अद्य दक्षिण कोरियायाः ग्वांगजू नगरे संजाते विश्व चैंपियनशिप प्रतिस्पर्धायाः अन्तिमायां स्पर्धायां भारतीय दलेन स्वकीयं प्रथमं स्वर्णपदकं विजितम्। अथ वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्र मोदी अस्य मासस्य नवमे दिनांके जलप्लावनस्य स्थितिं समीक्षितुं पंजाब राज्यं गमिष्यति। सः व्यक्तिगत रूपेण स्थानीय स्थित्याः मूल्यांकनं करिष्यति तथा च प्रभावितानां जनानां अधिकतमं साहाय्यं सुनिश्चेतुं वास्तविकताम् अवगच्छति इति अपेक्षते। पंजाब भाजपाध्यक्षः सुनील जाखर इत्येषः सोशल मीडिया संदेशे अस्याः यात्रायाः पुष्टिम् अकरोत्। सः अवदत् यत् प्रधानमन्त्री संकटकालस्य विषये अतीव चिन्तितः अस्ति, घटनाक्रमस्य निरीक्षणं च निकटतया कुर्वन् अस्ति। श्रीजाखरः पुनरुक्तवान् यत् भारत सर्वकारः पंजाबराज्यस्य जनैः सह दृढतया स्थितः अस्ति। पंजाब जम्मू कश्मीर हिमाचल प्रदेश इत्येतेषु राज्येषु जलप्रलय स्थितिम् आधृत्य सहायोद्धार कार्याणि सजवं प्रचलन्ति। पंजाबराज्ये जलप्रलय स्थितेः अनन्तरं जनानां जीवनं सामान्यं प्रचलति। राज्ये जलप्रलयेन 2000 ग्रामाणां प्रायः 80,000+ 3,00,000+ जनाः प्रभाविताः अभवन्। आकाशवाण्याः सह संवाददात्रानुसारं स्थानीय प्रशासनं सेना एनडीआरएफ वीएसएफ चेत्यादयः साहाय्योद्धार कार्येषु प्रवृत्ताः सन्ति। अद्य प्रधानमन्त्री नरेन्द्र मोदी श्री नारायण गुरोः जयन्त्यवसरे तस्य मनोवृत्तिं समाजे तस्य प्रभावं च स्मरितवान्। एकस्मिन् सामाजिक सन्देशे प्रधानमन्त्रिणा उक्तं यत् सामाजिक सुधारस्य शिक्षायाः च प्रचारार्थं नारायण गुरोः आह्वानं यूनां कृते प्रेरणादायकः भविष्यति। जम्मू कश्मीरे अस्य मासस्य 12 दिनांक पर्यन्तं सम्पूर्णे जम्मू कश्मीर प्रदेशे अविराम वृष्टिः मेघगर्जनं च भविष्यति इति ऋतुविभागेन पूर्वानुमानं प्रकटितम् अस्ति। विभागस्यानुसारं श्वः पर्यन्तं व्यापकः प्रकोपः भवितुम् अर्हति, यत्र अनेकेषु स्थानेषु निम्नवृष्टिः भविष्यति। जम्मू संभागस्य केषुचित् मण्डलेषु रात्रौ अपराह्णे प्रातःकाले वा मध्यमवृष्टिः भवितुं शक्नोति। सितम्बर मासस्य 9 दिनांकात् 12 दिनांकपर्यन्तं सम्पूर्णे केन्द्रशासितप्रदेशे पृथक् स्थानेषु वृष्टेः सम्भावना वर्तते। तत्रैव जम्मू श्रीनगर राष्ट्रियराजमार्गः अद्य निरन्तरं 6th दिवसेऽपि यातायाताय अवरुद्धः अस्ति। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः www.newsonair.gov.in वेबसाइट इत्यत्र अथ न्यूज ऑन एआईआर मोबाइल ऐप इत्यत्र अपि उपलब्धो भविष्यति। भारत ऋतु विज्ञान विभागेन अद्य गुजरात राजस्थानयोः अतिवृष्टेः अनुमानं विहितम्। ऋतुविभागस्य अनुसारं हरियाणा चण्डीगढ़ दिल्ली उत्तराखण्डेषु अग्रिमेषु 2-3 दिवसेषु भूरिवृष्टेः सम्भावना अस्ति। तमिलनाडु केरल माहे लक्षद्वीप तटीय आन्ध्रप्रदेश यनम चेत्येतेषु राज्येषु एवमेव स्थितेः सम्भावना वर्तते। ऋतुविज्ञानविभागेन श्वः यावत् असम नागालैण्ड मणिपुर मिजोरम त्रिपुरा इत्येतेषु राज्येषु अपि अल्पवृष्टेः सम्भावना प्रकटिता। सममेव विभागेन आगामि पञ्चदिवसावधौ आन्ध्रप्रदेश यनम रायलसीमा चेत्येतेषु तटीय क्षेत्रेषु तीव्रवायोः अनुमानम् अपि प्रकटितम्। जापानदेशस्य प्रधानमन्त्री शिगेरु इशिबा इत्यनेन अद्य निर्वाचने पराजयानन्तरं त्यागपत्रं प्रदत्तम्, येन तस्य सत्तारूढस्य लिबरल डेमोक्रेटिक दलस्य एलडीपी इत्यस्य संसदीय बहुमतस्य च क्षतिः अभवत्। एकस्मिन् वार्ताहरसम्मेलने इशिबावर्यः अवदत् यत् सः लिबरल डेमोक्रेटिक दलस्य अध्यक्षपदादपि त्यागपत्रं दातुं निश्चितवान्। अयं निर्णयः अपेक्षितस्य दलस्य निर्वाचनात् पूर्वमेव अभवत्, येन सः निष्कासितुं बाध्यः स्यात्। श्री इशिबा उत्तराधिकारिणः चयनं यावत् प्रधानमन्त्री भविष्यति। भारतेन व्यापार संघटनेन सह मुक्त निष्पक्ष समावेशी बहुपक्षीय व्यापार व्यवस्थायाः प्रतिबद्धता पुनः पुष्टीकृता। ह्यः व्लादिवोस्तोक नगरे आयोजितायां संघाई सहकार संघटनस्य उद्योगमन्त्रिणाम् उपवेशने भारतेन सह समृद्ध्यै एससीओ संघटनस्य सामूहिक शक्तेः लाभं ग्रहणाय संभाव्य विषयेऽपि बलं प्रदत्तम्। वाणिज्योद्योगमन्त्रालयेन एकस्मिन् वक्तव्ये उक्तं यत् देशे निर्यातविविधीकरणे, निर्भरता न्यूनीकरणे, आपूर्तिश्रृङ्खलानां निर्माणे च आवश्यकता प्रकाशितास्ति। भारतेन व्यापारप्रवाहं वर्धयितुं दुर्बलतां निवारणाय सम्पूर्णे क्षेत्रे समावेशे वृद्धेः समर्थनाय च समन्वितकार्याणां महत्त्वे अपि बलं प्रदत्तम्। बिहारराज्ये मुख्यमन्त्री नीतीशकुमारः अद्य मुख्यमन्त्री महिला रोजगार योजनेति महिलानां कृते वृत्त्यावसरान् प्रदातुं नूतना योजना प्रारब्धवान्। मुख्यमन्त्रिणा योजनायाः लोकप्रियतायै प्रचारयानानां ध्वजं प्रदर्श्य योजना पोर्टल इत्यस्य उद्घाटनं चाकरोत्। अस्याः योजनायाः अन्तर्गतं राज्यस्य प्रत्येक परिवारात् एका महिला स्वेच्छानुसारं व्यवसायस्य कृते आर्थिक साहाय्यं प्राप्स्यति। वित्तीय सहायतायाः प्रथम देयमूल्यरूपेण प्रत्येकस्याः महिलायाः बैंक लेखायां डीबीटी इत्यनेन माध्यमेन 10,000 रूप्यकाणि आगमिष्यन्ति। ग्रामीण विकास विभागः अस्याः योजनायाः नोडल एजेंसीति भविष्यति, तथा च बिहार ग्रामीण आजीविका प्रोत्साहन समितिः जीविका तस्य निष्पादनं करिष्यति। अद्य रात्रौ सम्पूर्णे भारते एका खगोलीय घटना भविष्यति। अद्य रात्रौ पूर्णं चन्द्रग्रहणं भविष्यति। एतद्ग्रहणं सम्पूर्णे भारते स्पष्टतया द्रष्टुं शक्यते। एतत् चन्द्रग्रहणम् 8:58 आरभ्य श्वः प्रायः 2:30 प्रचलिष्यति। विश्वधनुर्प्रतिस्पर्धायां भारतीय युगल वर्गेण अद्य ऐतिह्यं विरचितम्। दक्षिण कोरियायाः ग्वांगजू नगरे संजाते विश्व चैम्पियनशिप प्रतिस्पर्धायाः अन्तिमायां स्पर्धायां भारतीय दलेन फ्रांस दलं पराजित्य स्वकीयं प्रथमं स्वर्णपदकं विजितम्। अन्ते मुख्य वार्ताः पुनः एकवारम्। प्रधानमन्त्री नरेन्द्रमोदी अस्य मासस्य 9 दिनांके पंजाबराज्ये जलप्लावनस्य स्थितिं समीक्षितुं गमिष्यति। पंजाब, जम्मू कश्मीर, हिमाचल प्रदेश इत्येतेषु राज्येषु जलप्रलयस्थितिम् आधृत्य साहाय्योद्धारकार्याणि सजवं प्रचलन्ति। भारतीय ऋतुविज्ञान विभागेन अद्य गुजरात राजस्थानयोः अतिवृष्टेः अनुमानं प्रकटितम्। जापानदेशस्य प्रधानमन्त्री शिगेरु इशिबा इत्यनेन अद्य निर्वाचने पराजयानन्तरं त्यागपत्रं प्रदत्तम्। भारतेन विश्वव्यापार संघटनेन सह मुक्त निष्पक्ष समावेशी बहुपक्षीय व्यापार व्यवस्थायाः प्रतिबद्धता पुनः पुष्टीकृता। अपि च विश्वधनुर्प्रतिस्पर्धायां भारतीय पुरुषयुगलवर्गेण अद्य दक्षिण कोरियायाः ग्वांगजू नगरे संजाते विश्व चैम्पियनशिप प्रतिस्पर्धायाः अन्तिमायां स्पर्धायां भारतीय दलेन स्वकीयं प्रथमं स्वर्णपदकं विजितम्। इति वार्ताः।